ततः प्रभाते विमले कृतकर्मा नराधिपः विश्वामित्रं महात्मानं आजुहाव स राघवं तं अर्चयित्वा धर्म आत्मा शास्त्रदृष्टेन कर्मणा राघवौ च महात्मानौ तदा वाक्यम् उवाच ह भगवन् सुआगतम् ते अस्तु किं करोमि तव अनर्घ्य भवान् अज्ञापयतु माम् आज्ञाप्यः भवता हि अहम् एवम् उक्तः सः धर्म आत्मा जनकेन महाआत्मना प्रति उवाच मुनिश्रेष्ठः वाक्यम् वाक्यविशारदः पुत्रौ दशरथस्य इमौ क्षत्रियौ लोकविश्रुतौ द्रष्टुकामौ धनुः श्रेष्ठम् यद् एतत् त्वयि तिष्ठति एतद् दर्शय भद्रम् ते कृतकामौ नृप आत्मजौ दर्शनाद् अस्य धनुषः यथा इष्टम् प्रतियास्यतः एवम् उक्तः तु जनकः प्रति उवाच महामुनिम् श्रूयताम् अस्य धनुषः यद् अर्थम् इह तिष्ठति देवरातः इति ख्यातः निमेः ज्येष्ठः महीपतिः न्यासः अयम् तस्य भगवन् हस्ते दत्तः महात्मनः दक्षयज्ञवधे पूर्वम् धनुः आयम्य वीर्यवान् रुद्रः तु त्रिदशान् रोषात् सलीलम् इदम् अब्रवीत् यस्माद् भागार्थिनः भागम् न अकल्पयत मे सुराः वर अंगानि महाअर्हाणि धनुषा शातयामि वः ततः विमनसः सर्वे देवाः वै मुनिपुङ्गव प्रसादयन्त देव ईशम् तेषाम् प्रीतः अभवद् भवः प्रीतियुक्तः तु सर्वेषाम् ददौ तेषाम् महात्मनाम् तद् एतद् देवदेवस्य धनुः रत्नम् महात्मनः ज्ञातभूतम् तदा न्यस्तम् अस्माकं पूर्वजे विभौ अथ मे कृषतः क्षेत्रं लांगलाद उत्थिता ततः क्षेत्रं शोधयता लब्धा नामना सीता इति विश्रुता भूतलाद उत्थिता सा तु वी अवर्धत मम आत्मजा वीर्यशुल्का इति मे कन्या स्थापिता इयम् अयोनिजा भूतलाद उत्थिताम् ताम् तु वर्धमानाम् मम आत्मजाम् करयामासुः आगत्य राजानः मुनिपुंगव तेषाम् वरयताम् कन्याम् सर्वेषाम् पृथिवीक्षिताम् वीर्यशुल्का इति भगवन् न ददामि सुताम् अहम्। ततः सर्वे नृपतयः समेत्य मुनिपुंगव मिथिलाम् अपि उप आगम्य वीर्यं जिज्ञासवः तदा तेषां जिज्ञासमानानां शैवं धनुः उप आहृतम् नाशेकुः ग्रहणे तस्य धनुषः तोलने अपि वा तेषां वीर्यवताम् वीर्यम् अल्पम् ज्ञात्वा महामुने प्रत्याख्याता नृपतयः निबोध तपोधन ततः परमकोपेन राजानः मुनिपुंगव अरुन्धन् मिथिलाम् सर्वे वीर्यसन्देहम् आगताः आत्मानम् अवधूतम् मे विज्ञाय नृपपुंगवाः रोषेण महता आविष्टाः पीडयन् मिथिलाम् पुरीम्। अतः संवत्सरे पूर्णे क्षयम् यातानि सर्वशः साधनानि मुनिश्रेष्ठ ततः अहम् भृशदुःखितः। ततः देवगणान् सर्वान् तपसा अहम् प्रसादयम् च परमप्रीताः चतुरङ्गबलम् सुराः ततः भग्नाः नृपतयः हन्यमानाः दृशः यजुः अवीर्याः वीर्यसन्दिग्धाः स अमात्याः पापकारिणः तद् एतन् मुनिशार्दूल धनुः परमभास्वरम् रामलक्ष्मणयोः च अपि दर्शयिष्यामि सुव्रत। यदि अस्य धनुषो रामः पूर्याद् आरोपणं मुने सुताम् अयोनिजाम् सीताम् दद्याम् दाशरथेः अहम् इति आर्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकंदे षट्षष्टितमः सर्गः।